रदि संस्फुरदात्मतत्त्वं सच्चित् सुखं परमहं सगतिं तुरीयम् यत्स्वप्नजागर सुषुप्तमवैति नित्यम् तद्ब्रह्म निष्कलमहं न च भूतसङ्गः प्रातर्भजामि मनसा वचसामगम्यम् वाचो विभान्ति निखिला यदनुग्रहेण यन्नेति नेति वचनेर्निगमा अवोचु तं देवदेवमजमच्युतमा पुरग्र्यम् प्रातर्नमामि तमस परमर्कवर्णम् पूर्णं सनातनपदम् पुरुषोत्तमाख्यम् यस्मिन्निदं जगदशेषमशेषभूतम् रज्ज्वाम्भुजङ्गम इव प्रतिभासितं वै लोकत्रयमिदं पुण्यं लोकत्रयविभूषितम् प्रातःकाले पचेद्यस्तु स गच्छेत् परमं पदं हरिः ॐ।